इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। अथ वार्ताः। ईरानदेशेन गतरात्रौ इस्रायलदेशं विरुध्य प्रत्युत्तरे आक्रमणं विहितम्। आक्रमणे इस्रायलदेशस्य नागरिकेषु शताधिक प्रक्षेप्यस्त्राणि ड्रोनस्त्राणि च प्रक्षेपितानि। तेहरानेन इदम् ऑपरेशन सीवियर पनिशमेंट इति प्रोक्तम्। तेल अवीव यरूशलम इत्यत्र विस्फोट कारणेन इस्रायलदेशेन वायवीय संचेतना प्रसारिता। जनाः आश्रयस्थलेषु गन्तुं प्रोक्ताः। अवधेयमस्ति यत् ईरानदेशेन एतत् आक्रमणम् इस्रायलदेशस्य बृहत्तम सैन्यकार्याचरणस्य कतिपयहोराः अनन्तरम् एव कृतम्। इस्रायलदेशस्य आक्रमणे ईरानराष्ट्रस्य परमाणुकेन्द्राणि शीर्षसैन्याधिकारिणः च निहताः। उभयोः देशयोः युद्धेन नागरिकाः प्रभाविताः सन्ति। प्रधानमन्त्रिणे नरेन्द्रमोदिने गतदिने इस्रायलदेशस्य प्रधानमन्त्रिणा बेंजामिन नेतन्याहू इत्यमुना दूरभाषे पश्चिम एशियायाम् उदीयमानस्थिते विषयकं विवरणं प्रदत्तम्। सोशल मीडिया पोस्ट इत्यत्र श्रीमोदिना उक्तं यत् अमुना विषयेऽस्मिन् भारतस्य विचाराः प्रकटिताः, क्षेत्रे शान्तिं स्थिरतां च शीघ्रं स्थापयितुं बलं प्रदत्तम्। विदेशमन्त्री डॉ एस जयशंकरः इस्रायलदेशस्य विदेशमन्त्रिणा गिदोन सार इत्यमुना सह वर्तमान घटनाक्रमस्य विषये संवादम् अकरोत्। सममेव विदेशमन्त्री डॉ एस जयशंकरः ईरानदेशस्य विदेशमन्त्रिणा सैयद अब्बास अरागची इत्यमुना साकम् अपि विषयेऽस्मिन् संवादम् अकरोत्। केन्द्रीय पेट्रोलियम प्राकृतिक गैस इति वातीन्धन मन्त्री हरदीप सिंह पुरी अवोचत् यत् देशे आगामिभ्यः मासेभ्यः ऊर्जसः पर्याप्ता आपूर्ति वर्तते। तेन पेट्रोलियम सचिव इत्यमुना भारतीयोर्जसः सार्वजनिक क्षेत्राणाम् उपक्रम प्रमुखैः च साकम् उपवेशनस्य अनन्तरं सोशल मीडिया पोस्ट इत्यत्र विवरणं प्रदत्तम्। अवधेयं यत् तैलापूर्ति विषये स्पष्टीकरण महत्वम् अस्ति, यतोहि गतदिने ईरान देशे इस्रायल द्वारा आक्रमणस्य अनन्तरं तैलमूल्ये वृद्धिः जाता। डीजीसीए इति नागरिक विमानन महानिदेशालयेन अहमदाबादे विमान दुर्घटनायाः अनन्तरं निवारकोपायरूपेण जेनेक्स इंजन इत्यनेन युक्तानां लेस बोइंग 787-8 अथ 787-9 इति ड्रीमलाइनर इत्येषां विमानानाम् अतिरिक्त सुरक्षा निरीक्षणाय एयर इंडिया समवायः निर्देशितः। डीजीसीए इत्यनेन उक्तं यत् संबंधित क्षेत्रीय कार्यालयैः सह समन्वयनं विधाय तत्काल प्रभावेण निरीक्षणं कर्तव्यम्। एकस्मिन् वक्तव्ये डीजीसीए इत्यनेन प्रोक्तं यत् विमानस्य प्रस्थानात् पूर्वं सर्वविधं निरीक्षणम् आवश्यकं भविष्यति। भारतीय चिकित्सा संघस्य गुजरातस्य अध्यक्षः मेहुल साहा अवोचत् यत् अहमदाबादे विमान दुर्घटनायां चिकित्सक छात्रावासे चत्वारः छात्राः, एकस्य चिकित्सकस्य भार्या च मृत्युम् उपगताः। तेनोक्तं यत् व्रणितानाम् उपचाराय शताधिक चिकित्साः घटनास्थले चिकित्सालयेषु सेवारताः सन्ति। तेन इदमपि उक्तं यत् छात्रावासक्षेत्रे पञ्चचत्वारिंशत् चिकित्सक छात्राः संरक्षिताः। आयुष मन्त्रालयः अद्य नवदिल्ल्यां एक पृथिव्यै एक स्वास्थ्याय योगाधारितस्य हाइब्रिड वैश्विक शिखर सम्मेलन योग कनेक्ट इत्यस्य आयोजनं करिष्यति। इदं सम्मेलनम् अन्ताराष्ट्रिय योग दिवसात् पूर्वं प्रमुख कार्यक्रमस्य रूपेण आयोज्यते। शूटिंग इति क्रीडायां भारतस्य सुरुचि सिंह महिलानां 10 मीटर एयर पिस्टल इति श्रेण्यां स्वर्ण पदकं प्राप्तवती। तया फ्रांस देशीया क्रीडिका पराजिता। ISSF शूटिंग इति स्पर्धा मालिकायाम् एतत् हि सुरुचेः तृतीयं पदकं वर्तते। FIH हॉकी प्रो लीग इति स्पर्धायाम् अद्य भारतस्य महिलादलं पुरुषदलं च क्रीडिष्यतः। भारतीय पुरुषदलं ऑस्ट्रेलिया दलेन सह क्रीडिष्यति। ईषा स्पर्धा मध्याह्ने 2 वादने आरप्स्यते। महिलादलमपि ऑस्ट्रेलिया दलेन सह क्रीडिष्यति। इयं स्पर्धा सायं 5:30 प्रारप्स्यते। WTCA इति क्रिकेट स्पर्धा मालिकायां दक्षिण अफ्रीका दलं विजयं प्रति अग्रेसरं वर्तते। इति वार्ताः।